सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्. प्रथमतया अहम् एकं श्लोकं वदामि. हस्तस्य भूषणं दानं, सत्यं कण्ठस्य भूषणं, श्रोत्रस्य भूषणं शास्त्रं, भूषणैः किं प्रयोजनम्? इत्युक्ते दानकरणम् एव हस्तस्य भूषणं, सत्यभाषणम् एव कण्ठस्य भूषणं, शास्त्राणां श्रवणम् एव कर्णस्य भूषणम्. अतः अन्यैः आभरणैः प्रयोजनं किम्? इत्युक्ते अन्यैः आभरणैः किमपि प्रयोजनं नास्ति इति अस्मान् बोधयति. शास्त्राणां श्रवणम् एव कर्णस्य भूषणं, परन्तु अन्यानि शास्त्राणि अवगन्तुं प्रथमतया व्याकरणशास्त्रस्य अवगमनम् अत्यावश्यकम् इति तु वयं जानीमः. अतः वयम् अत्र सर्वे मिलित्वा संस्कृतभाषायाः व्याकरणशास्त्रम् अवगन्तुं किञ्चित् प्रयत्नं कुर्मः. प्रथमतया वयम् अत्र गते सप्ताहे भविष्यत्कालरूपाणां विषये किञ्चित् अधीतवन्तः. अपि च तत्र एका कथा अपि अस्ति, तां कथां पठित्वा वयम् अवगतवन्तः च. तत्र कथा अस्ति नष्टः पिष्टघटः. किमर्थं वयं पठितवन्तः इत्युक्ते तत्र कथायां बहूनि भविष्यत्कालरूपाणि योजितानि. वाक्ये लृट् लकाररूपाणाम् उपयोगं कथं भवति इति वयं ज्ञातवन्तः. गृहपाठरूपेण तत्र कथायाः नीतेः विषये वाक्यानि रचयन्तु इति दत्तवती. प्रथमतया किञ्चित् गृहपाठं कृत्वा तदनन्तरम् अत्र कानिचन करपत्राणि अपि सन्ति, अपि च अभ्यासपुस्तके किमस्ति इति वयं पश्येम अनन्तरं. प्रथमतया अत्र भूमा भगिनी भवती वदतु, अत्र भवती किं लिखितवती? भगिनी अस्ति वा अत्र?
न कृतवती. अतिथयः गृहे सन्ति, क्षम्यता.
ओ अस्तु अस्तु. अनन्तरं शोभा भगिनी भवती लिखितवती वा?
आं भगिनी, नमस्कारः. कथायाः ब्राह्मणः अनागत्याः विषयाः चिन्तने आगत्य वस्तुं नष्टवान्. भगवतस्य कृपया सः पिष्टेन पूरित घटं प्राप्तवान्. न तु सः सन्तुष्टः अभवत्, न हि भगवताय कृतज्ञता. सः अपेक्षितवान् देशस्य सर्वाः जनाः दुर्भिक्षम् अनुभवेत् इति. तस्य चिन्तनम् अस्ति यदि देशे दुर्भिक्षः भवति तदेव तस्य लाभम् अस्ति, यतः तस्य पिष्टस्य मूलम् अधिकं भवति,
मूल्यम् अधिकं भवति.
तत् कारणे सर्वा जनाः दुःखितं भवितुम् आवश्यकम् अस्ति. अतः फलितांशम् आसीत् सः एव दुर्भिक्षम् अनुभवितवान्. कर्मफलम् अस्ति. किमपि वयं अन्येन अन्यस्य बहुवचने किम् अस्ति भगिनि?
अन्ये प्रथमाविभक्तौ अन्ये भगिनि, अत्र अन्यशब्दः विशेषणं, तदर्थम् अन्यशब्दं सप्तसु विभक्तिषु भवति, त्रिषु लिङ्गेषु भवति. यदि वयम् अन्यम् अत्र स्त्रीलिङ्गे, पुंलिङ्गे अपि च नपुंसकलिङ्गे अपि भवितुमर्हति विशेषणमिति कृत्वा. अत्र अपि च सप्तसु विभक्तिषु अपि भवति.
द्वितीयविभक्तिं किं भवति भगिनि?
चिन्तयतु, अत्र अन्य पुंलिङ्गे अत्र प्रथमतया पुंलिङ्गे वक्तव्यं वा स्त्रीलिङ्गे वक्तव्यं वा नपुंसकलिङ्गे वक्तव्या इति चिन्तनीयम्. अपि च एकवचने वा द्विवचने वा बहुवचने वा चिन्तनीयम्. अनन्तरं प्रथमाविभक्तौ वा द्वितीया वा.
अत्र जनसमूहः सन्ति, तत्कारणे पुंलिङ्गः उपयोगं कुर्मः. अपि ते जनां किमपि भवितुम् अस्ति चेत् अन्याम् अस्ति वा भगिनि? अन्याम्
अत्र अत्र केचन नियमाः सन्ति. अत्र द्वितीयविभक्तौ अन्यम् एकवचने,
अन्यमेव रामं
बहुवचने अन्यान् इति भवति. परन्तु अत्र यदि भवती भवितुम् अथवा भवति इति वक्तुम् इच्छति चेत् भूधातोः तत्र तस्मिन् वाक्ये कर्मपदं न सम्भवति, अतः द्वितीया विभक्तेः उपयोगं न कुर्मः, केवलं प्रथमाविभक्तेः उपयोगमेव कुर्मः. अत्र भूधातुः अकर्मकधातुः.
अन्याः किमपि दुर्लोचनं दुरालोचनं कुर्वन्ति चेत् तेन एव तत् प्रत्यागच्छति. लोकारूढिः अस्ति इति बहवः जनाः इत्येव कुर्वन्ति. यथा ब्राह्मणः अनागत्याः विषयाः चिन्तने आगत्य वस्तुं नष्टवान् तथा तदेव वाक्यम् अहम् आगत्यः न पश्यन् अनागत्यः एव पश्यन्ति, तत्कारणे दुःखिताः सन्ति.
दुःखिताः सन्ति. अस्तु भगिनि, अस्तु, उत्तमम् उत्तमं चिन्तनं. परन्तु वाक्येषु तत्र केचन दोषाः सन्ति, परन्तु अग्रे गत्वा भवती ज्ञातुं शक्नोति. अधुना केचन वाक्यनिर्माणे तत्र व्याकरणविषये केचन दोषाः सन्ति, परन्तु वयं पठामः अत्र, तदर्थमेव वयम् अत्र व्याकरणं पठिष्यामः. चिन्तनं तु उत्तमम्.
आं भगिनि, यदि भवती दोषानि समी
अग्रे गत्वा तत्र भगिनि अत्र व्याकरणशास्त्रम् इत्युक्ते अत्र व्याकरणशास्त्रमेव, अत्र सैन्स्. अत्र एकैकस्मिन् वाक्यं स्वीकुर्मः चेत् तत्र बहवः विषयाः सन्ति, नियमाः अपि सन्ति. वयं किञ्चित् ज्ञात्वा अग्रे गच्छेम. चिन्तनं तु उत्तमम्. अत्र रघुपति आचार्य महोदय, भवान् श्रावयतु.
आं महोदय, प्रथमं तु अनागतं विषयं प्रति यदि चिन्तां क्रियते चेत् तस्य कोऽपि लाभः न भवति, केवलं परिश्रमेण एव कार्यं सिद्ध्यति, न तु अलसत्वेन. द्वितीयं तु सर्वैः सुन्दराणि स्वप्नानि दृश्यन्ते, परन्तु ये जनाः कठिनं परिश्रमं कुर्वन्ति ते एव तेषां स्वप्नानां साक्षात्कारं कर्तुम् अथवा साक्षात्कारयितुं सक्षमाः भवेयुः, न तु यथा अस्माकं कथानायकः दरिद्रः ब्राह्मणः इव अन्यैः. तृतीयं तु यदि वयं यदा कदापि अतिधनिकाः अभविष्यामः तर्हि अस्माभिः सर्वथा दर्पः न प्रदर्शनीयः. अहङ्कारः अस्माकं परमशत्रुः, तेन दुर्गतिः एव आगच्छेत्. अतः अस्माभिः अहङ्कारं वर्जनीयम्.
अस्तु, उत्तमम् उत्तमम्. अत्र अभविष्यामः तत्तु तत्र लृङ्लकारः वयं न जानीमः इदानीं पर्यन्तम्. अत्र वाक्येषु कर्मणि प्रयोगे प्रथमं वाक्यमस्ति, कर्मणि प्रयोगे अस्ति. प्रथमं वाक्यं श्रावयतु महोदय.
अनागतं विषयं प्रति एकनिमिषं. यदा सर्वैः सुन्दराणि स्वप्नानि दृश्यन्ते.
तत् वाक्यं तत्र सर्वे पश्यन्तु. अत्र वाक्यं कर्मणि प्रयोगे अस्ति, सर्वैः दृश्यन्ते. इत्युक्ते इदानीं पर्यन्तं वयं कर्मणि प्रयोगं न जानीमः. उत्तमं वाक्यम्, उत्तमानि वाक्यानि. अत्र वाक्यानि संस्कृतभाषायां सुन्दररीत्या सज्जीकृत्य लेखनीयानि. सज्जीकृत्य इत्युक्ते डेकरेट्. We have to look at our sentences many a time. There could be a chance for mistakes. Even when I speak, there may be mistakes. So, sundarani vakyani, sundara ritya, sajji krutya. Punaha punaha ekavaram parishilya lekhaniyani. Tadeva atmakam kari, tadeva vayam atrikurmaha. Uttamani vakyani. Dhanyavadaha mohadeya. Anantaram, atra vamsi sudha bhagini.
नमस्ते नमस्ते महोदय, क्षम्यतां विलम्बेन आगतवती. नष्टः पिष्टगतः कथायां नीतिः साक्षात् श्रीमद्भगवद्गीतायाः द्वितीय अध्याये त्रिषष्टिः श्लोकयोः उदाहरणं भवति एव भवति. श्लोकान् अस्ति, ध्यायतो विषयान् पुंसः सङ्गास्तेषु उपजायते, सङ्गात् सञ्जायते कामः, कामात् क्रोधोऽभिजायते, क्रोधात् भवति सम्मोह, सम्मोहात् स्मृतिविभ्रमः, स्मृतिभ्रंशात् बुद्धिनाशो, बुद्धिनाशात् नश्यति.
भगिनी अत्र किञ्चित् स्थगयतु. अत्र अहम् अस्मिन् श्लोकस्य विषये अत्र अयं श्लोकः सर्वैः ज्ञातव्यः, सर्वैः उत्तमं श्लोकं, मम प्रियतमः श्लोकः अयं श्लोकः. एतं श्लोकं पठित्वा एव अहं अत्र संस्कृतभाषां ज्ञातुम् इष्टवती. प्रथमतया अयमेव श्लोकः पठित्वा श्लोकं पठित्वा अहं भगवद्गीता वा अथवा संस्कृतभाषाम् अध्येतुं प्रयत्नं कृतवती. मम प्रियतमः श्लोकः अयं श्लोकः, सर्वैः ज्ञातव्यः अत्र. परन्तु अहं यदि वयं पञ्चमीविभक्तेः विषये चर्चयिष्यामः तदा वयं एतं श्लोकं पठिष्यामः. उत्तमं श्लोकं भगिनी वदतु.
दरिद्रब्राह्मणः निद्रे आकाशे हर्म्यान् निर्मितवान्. ब्राह्मणः लौकिकविषयान् ध्यायन्ति, तेषु विषयेषु अनुबन्धः कृतवान्. लौकिकविषयान् संयोजनेन कामं क्रोधम् उत्पद्यते. तत् कारणेन सः पत्नीं क्रोधेन दण्डयति. यदा क्रोधम् उत्पयति तस्याः बुद्धिः नाशयति. यत् बुद्धिः नाशयति तत् प्रणश्यति. तावदेव भगिनि.
सुन्दरं सुन्दरम्, उत्तमम् उत्तमः श्लोकः.
धन्यवादः.
अयं श्लोकः सर्वदा स्मर्तव्यः. ध्यायते विषयान् पुंसः सङ्गस्तेषु क जायते सङ्गात् सञ्जायते कामः कामात् क्रोधोऽभिजायते क्रोधात् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः स्मृतिभ्रंशात् बुद्धिनाशाय बुद्धिनाशः प्रणश्यति अन्ततो गत्वा प्रणश्यति
मम एव बहु प्रियः श्लोकः भगवति
उत्तमं
धन्यवादः
धन्यवादः भगिनि धन्यवादः
उत्तमः श्लोकः सर्वैः ज्ञातव्यः वन् शुड् नो एस् अ ह्यूमन् एव्रिबडि शुड् नो देट् उत्तमम् अत्र इतोपि अत्र भूमा भगिनी न रचितवती अधुना अहम् अत्र अहमपि कानिचन वाक्यानि लिखितवती अहमपि वदामि अत्र यदि वयं जानीमः अत्र एका सूक्तिः अस्ति संस्कृतभाषायां यादृशी भावना यस्य सिद्धिर्भवति तादृशी अत्र यस्य भावना यादृशी अस्ति तादृशी एव सिद्धिः भवति इति एका उत्तमः सूक्तिः अस्ति तथा एव अत्र सः दरिद्रः सर्वदा तदेव चिन्तनं कृत्वा सः निद्राति तदर्थमेव स्वप्नजगति अपि तदेव सः तादृशं स्वप्नमेव सः दृष्टवान् तदर्थमेव ज्येष्ठाः वदन्ति सर्वदा दैवप्रार्थनां कृत्वा अनन्तरं निद्रातु तदा वदन्ति तदर्थमेव दैवप्रार्थनां कृत्वा निद्रामश्चेत् तदा साधारणतया स्वप्नानि न आगच्छन्ति नो चेत् अथवा आगच्छन्ति चेदपि उत्तमानि स्वप्नानि प्राप्तुं शक्नुमः तत् अन्यः एकः विषयः अनन्तरं दिवास्वप्नं दिवास्वप्नः इत्युक्ते डे ड्रीमिङ्ग् दिवास्वप्नं कुर्मः चेत् न किमपि प्रयोजनम् इति अन्यः विषयः अत्र यथा रघुपतिमाचार्यमहोदयः उक्तवान् अत्र वयं पूर्वमेव ज्ञातवन्तः अन्यः श्लोकः उद्यमेन एव कार्याणि सिद्ध्यन्ति न तु मनोरथैः इति अन्यः विषयः अपि च अत्र एकः अन्यः विषयः अपि अस्ति अत्र अहं गतसप्ताहे एव पठितवती अन्यः श्लोकः श्लोकः कः इत्युक्ते अत्र धनवन्तमदातारम् अत्र श्लोकः अस्ति द्वौ अम्भसि निवेष्टव्यौ गले बद्ध्वा दृढां शिलां धनवन्तमदातारं दरिद्रञ्च अतपस्विनम् उत्तमः श्लोकः अयं श्लोकः अपि अस्मिन् श्लोके पदानि द्विवचने सन्ति द्वौ अम्भसि निवेष्टव्यौ अत्र जनद्वयमस्ति लोके जनद्वयमस्ति द्वौ अम्भसि अम्भसि इत्युक्ते जलम् अम्भसि सप्तमी विभक्तिः द्वौ जनौ अम्भसि जले निवेष्टव्यौ निवेष्टव्यौ इत्युक्ते अत्र निवेष्टव्यम् अत्र तव्यत् प्रत्ययम् इत्युक्ते निमज्जनीयौ वयं जानीमः गणेशनिमज्जनं तथा एव अत्र निवेष्टव्यम् इत्युक्ते निमज्जनीयं द्वौ जनौ जले निमज्जनीयौ परन्तु तौ कौ तौ द्वौ कौ इत्युक्ते एकः धनवान् परन्तु अदाता द्वितीयः अस्ति दरिद्रः अपि च अतपस्वी अत्र जनद्वयमस्ति धनवन्तम् अदातारम् अपि च दरिद्रञ्च अतपस्विनं यः दरिद्रः अस्ति सः उद्यमं न करोति उद्यमः इत्युक्ते अत्र एफोर्ट् इति अर्थः यः दरिद्रः अस्ति चेदपि उद्यमं न करोति अथवा प्रयासं न करोति तम् अपि च यः धनवान् अस्ति सः न कोऽपि दानं न कदापि दानं करोति तमपि गले दृढां शिलां बद्ध्वा जले निवेष्टव्यम् वि शुड् टै ए बिग् स्टोन् इन् देर् नेक् अण्ड् वि शुड् ड्रौन् मेक् दम् ड्रौन् इन् द वाटर् तथा वदति इत्युक्ते दरिद्रः यः कोऽपि दरिद्रः अस्ति चेत् सः किमपि उद्यमं कृत्वा अथवा प्रयासं कृत्वा अथवा प्रयत्नं कृत्वा किमपि करणीयं, केवलं दिवास्वप्नं कुर्मः करोति चेत् न कोऽपि लाभः. अत्र श्लोकः अस्ति, द्वौ अम्भसि निवेष्टव्यौ गले बद्ध्वा दृढां शिलां धनवन्तमदातारं दरिद्रञ्च अतपस्विनम्. अत्र तपः इत्युक्ते किमपि कार्यम् उत्तमरीत्या कुर्मः चेत् तदेव तपः. उत्तमम्. अनन्तरं जयन्त् महोदय, भवान् लिखितवान् वा अत्र वाक्यानि? जयन्त् महोदय अस्ति अत्र.
भगिनी क्षम्यताम्, अहं अद्यतां गृहम् आगच्छामि, अहं किमपि न करोमि.
अस्तु महोदय, शृणोतु, चिन्ता मास्तु. अनन्तरम् अत्र गते सप्ताहे अहं सङ्ख्यानां विषये एकं ज्ञातव्यम् इति उक्तवती. तत् किमित्युक्ते समूहवाचकशब्दाः ज्ञातव्याः. अत्र यदि एकमेव अस्ति चेत् एकम् इति वदामः. अत्र रघुपत्याचार्यमहोदय, भवान् वदतु, अत्र द्वे वस्तु स्तः तदा किं वदामः? समूहवाचकशब्दः आं भगिनि, उत्तमम्. अहं किं वक्तुमिच्छामि इत्युक्ते, यथा भूमा भगिनी उक्तवती तथा एव अत्र वस्तुद्वयम् इति वदामः. इत्युक्ते समूहवाचकशब्दाः, समूहवाच्यः इति वदामः. तथा एव अत्र वस्तु त्रीणि वस्तूनि सन्ति चेत् वस्तुत्रयं, त्रयम् इत्युक्ते एकं द्वयं त्रयं चतुष्टयं. वयं जानीमः दुष्टचतुष्टयं, लोकत्रयम् अथवा कालत्रयम्, अपि च पञ्चकम् इत्युक्ते अत्र वयं किं जानीमः? मनीषापञ्चकं, तत्र श्लोकपञ्चकमस्ति. तथा एव अपि च षट्कं, वदतु भगिनि.
वैराग्यपञ्चकं स्वामी देशिकन्
वेदान्तदेशिकम्. अस्तु अस्तु. अत्र मनीषापञ्चकं वयं जानीमः. षट्कम् इत्युक्ते निर्वाणषट्कम् इति अस्ति. सप्तकम्, अष्टकं, नवकं, दशकम्, एकादशकं तथा भवति. अपि च अन्ततो गत्वा विंशकं नपुंस अत्र शतकं तथा भवति. अत्र परन्तु तेषां नाम अस्ति समूहवाचकशब्दाः. एतानि पदानि ज्ञातव्यानि. अनन्तरम् अत्र प्रथमं करपत्रमस्ति. अत्र वयं गते सप्ताहे भविष्यत्कालरूपाणां विषये नष्टः पिष्टः घटः इति कथां पठितवन्तः, परन्तु किञ्चित् इतोपि अभ्यासं कुर्मः इति चिन्तयित्वा अहम् इदं करपत्रं प्रेषितवती. अत्र गीतासोपानात् उद्धृतं परिच्छेदं पठामः. अत्र भूमा भगिनी, अत्र प्रथमं करपत्रं पठतु. अत्र
प्रथमं करपत्रम्
अत्र तदा किं किं भविष्यति?
प्रथमं करपत्रम्. ओके. कथा, रामायणकथा. तदा किं किं भविष्यति? सावधानतया एतां कथां पठत. सीतायाः अन्वेषणार्थम् आञ्जनेयः समुद्रलङ्घनं कृत्वा लङ्काम् आगतवान्. तत्र सर्वेषु भवनेषु सीतायाः अन्वेषणं कृतवान्, परन्तु सीतां न दृष्टवान्. तदा निराशतया सः एवं चिन्तयति. यदि अहं सीताम् अदृष्ट्वा एव किष्किन्धां गमिष्यामि तर्हि कः पुरुषार्थः साधितः भविष्यति? सुग्रीवः तदा मां किं वा वदिष्यति? अन्ये वानराः अपि किं वा वदिष्यति? अहम् अपि सीता न लब्धा इति रामं कथं वा वदिष्यामि? यदि अहं तथा वदिष्यामि तर्हि रामः प्राणान् त्यक्ष्यति, तदा लक्ष्मणः अपि मरिष्यति। तां वार्तां श्रुत्वा भरतः शत्रुघ्नः च प्राणान् त्यक्ष्यतः। ततः पुत्रशोकेन कौसल्या, सुमित्रा, कैकेयी चापि मरिष्यन्ति। रामस्य मरणं ज्ञात्वा सुग्रीवः प्राणान् न धरिष्यति। ततः तस्य पत्नी रुमा, वालिपत्नी तारा च प्राणान् न धरिष्यतः। तत्पश्चात् कुमारः अङ्गदः मरणं प्राप्स्यति। तदा तस्य प्रियाः वानराः दुःखेन मुष्टिभिः मस्तकान् ताडयिष्यन्ति, प्राणत्यागं च करिष्यन्ति। केऽपि वानराः ततः क्रीडासुखं न अनुभविष्यन्ति। ते शिलाग्रेभ्यः अधः पतिष्यन्ति, विषं वा पास्यन्ति, उपवासव्रतं वा आचरिष्यन्ति। एवं सम्पूर्णः रघुवंशः वानरवंशः च विनङ्क्ष्यतः।
उत्तमम्, उत्तमम्। अधुना वयं भवन्तः अवगतवन्तः एव, किञ्चिदेव चिन्तनं कुर्मः अधुना व्याकरण अंशानां विषये चिन्तनं कुर्मः। अत्र भगिनी वदतु अन्येषां कृते, यदि कोऽपि यः कोऽपि न जानाति चेत् ज्ञातुं शक्नोति, सावधानतया विभक्तिः का?
सावधानतया विभक्ति
भगिनि,
चतुर्थी विभक्ति
अत्र सावधानतया प्रथमविभक्तिरूपं किम्?
सावधानता।
उत्तमं, सावधानता। अत्र सावधानता स्त्रीलिङ्गपदम्, अत्र भाववाचकशब्दः, अत्र सावधानतया। एतां कथां वदतु विभक्तिः।
एतां कथां द्वितीया विभक्ति, कथाम् एतां विशेषं
वचनं, वचनं किं?
कथाम् एकवचनं।
उत्तमं, पठत वदतु।
पठत लोट्लकार, पठत बहुवचनं।
पुरुषः कः?
प्रथमपुरुषः युवां पठत्।
ना भगिनी, पुनः चिन्तयतु। अत्र पठत,
पठन्ति, पठसि,
अत्र अत्र लोट्लकारः
पठतु, पठतु, ततः पठत, पठन्तु।
अत्र कः वदति संस्कृतः भगिनी वक्तुं शक्नोति वा लोट्लकाररूपाणि? सुन्दरं, सुन्दरम् इत्युक्ते अत्र मध्यमपुरुष बहुवचनं,
बहुवचनं,
बहुवचनं। यूयं पठत इति दत्तमस्ति। उत्तमं भगिनि। अनन्तरम् अत्र सीतायाः अन्वेषणार्थं सीतायाः विभक्तिः का?
षष्ठी विभक्ति,
षष्ठी विभक्तिः। अत्र पश्यन्तु अन्वेषणार्थं तत्र मकारः तिष्ठति, किमर्थं तत्र मकारः तिष्ठति? अनुस्वारः न आगच्छति किमर्थम्? अत्र अन्वेषणार्थम् आञ्जनेयः, तत्र पदद्वयं पश्यन्तु, अन्वेषणार्थम् आञ्जनेयः इति अस्ति तत्र
कर्तुम्।
अत्र अहं किं वदामि इत्युक्ते मकारस्य स्थाने अनुस्वारः न आगतः, किमर्थम्?
followed by vowels.
अत्र पश्यन्तु समुद्रलङ्घनं कृत्वा इति पश्यन्तु तत्र लङ्घनम् इत्यस्य तत्र अनुस्वारम् अनुस्वारः आगतः परन्तु अत्र अन्वेषणार्थम् आञ्जनेयः तत्र अत्र मकारस्य स्थाने अनुस्वारः न आगतः प्रथमं तत्र द्वितीयपदद्वयमस्ति समुद्रलङ्घनं कृत्वा तत्र मकारस्य स्थाने अनुस्वारः आगतः किमर्थम् इत्युक्ते तत्र एकः सन्धिः अस्ति अनुस्वारस्य ययि परसवर्णः क्षम्यताम् अत्र न मोनुस्वारः क्षम्यताम् मोनुस्वारः इति सूत्रेण यदि मकारस्य स्थाने अनुस्वारादेशः भवति यदि हल् वर्णः अस्ति चेत् अत्र ककारः हल् वर्णः इति कृत्वा तत्र मकारस्य स्थाने अनुस्वारः आगतः यथा अत्र शोभाभगिनी उक्तवती तथा एव अत्र स्वरवर्णः स्वरवर्णः अस्ति चेत् मकारः तथा एव तिष्ठति इति अर्थः अत्र आञ्जनेयः कथं लिखितमस्ति पश्यतु अत्र किमर्थं तथा
आञ्जनेयः
तत्रापि तत्र सन्धेः नाम अस्ति परसवर्णसन्धिः अत्र प्रथमतया मकारस्य स्थाने अनुस्वारः आगच्छति अनन्तरम् अनुस्वारस्य स्थाने परसवर्णः आदेशः भवति इत्युक्ते अत्र अनुस्वारस्य ययि परसवर्णः इति सूत्रेण तत्र चवर्गीय अन्तिमव्यञ्जनम् आगच्छति तदर्थमेव तत्र यदा वयं लिखामः तथा एव लेखनीयम् तथा किमर्थं लिखितवन्तः इति प्रथमं वयं चिन्तयामश्चेत् अनन्तरं तथा एव लेखनीयम् इति वयं ज्ञातुं शक्नुमः अनन्तरम् अत्र लङ्घनम् इति अपि दत्तमस्ति लङ्घनं तत्रापि तथा एव लिखितमस्ति कवर्गी अन्तिमव्यञ्जनं किमर्थं समुद्रलङ्घनम् इत्यस्मिन् पदे तत्र अनुस्वारस्य स्थाने ण्यकारः ण्यकारः लिखित्वा अनन्तरं घ लिखितमस्ति इत्युक्ते तत्र सन्धेः नाम अस्ति अनुस्वारस्य ययि परसवर्णः अत्र लङ्घनम् इति पदस्य रूपं ल्युडन्तरूपं ल्युट् ल्युट् प्रत्ययान्तरूपं लङ्घनं तत्र क्रियापदमस्ति लङ्घते आत्मनेपदिरूपम् अत्र सीतायाः अन्वेषणार्थम् आञ्जनेयः समुद्रलङ्घनं कृत्वा कृत्वा इति प्रत्ययस्य नाम किं भगिनि
त्वा प्रत्ययः
त्वा प्रत्ययः कृत्वा लङ्काम् आगतवान् अत्र लङ्काम् आगतवान् यद् यत्र कुत्रापि ल्यबन्त प्रत्ययं ल्यप्रत्ययं वा अथवा क्त्वान्तप्रत्ययम् अस्ति चेत् तस्मात् पूर्वं साधारणतया द्वितीया विभक्तिः भवति तथा एव गं धातुः सकर्मकधातुः इति कृत्वा अत्र लङ्काम् आगतवान् लङ्काम् आगतवान् अत्र लङ्कां विभक्तिः का
द्वितीयाविभक्ति
किमर्थमित्युक्ते अत्र आञ्जनेयः आगतवान् वयं जानीमः वयं पठितवन्तः भूतकालरूपाणि अस्मिन् वाक्ये आञ्जनेयः आगतवान् कुत्र लङ्कां गं धातुः अस्ति चेत् तस्मिन् वाक्ये कर्मपदं सम्भवति आञ्जनेयः आगतवान् आञ्जनेयः इति पदस्य विशेषणम् एव आगतवान् भूतकालरूपाणि वयं पठितवन्तः क्तवत्वन्तरूपाणि आगतवान् गतवान् एतानि रूपाणि अनन्तरं तत्र सर्वेषु भवनेषु विभक्तिः का भगिनि
सप्तमी विभक्ति एकवचनं
चिन्तयतु भगिनि
सर्वेषु ओ बहुवचनं सर्वेषु
सर्वेषु
बहुवचनं
भवनेषु सर्वेषु भवनेषु सीतायाः अन्वेषणं कृतवान् अत्र सीतायाः अन्वेषणं कृतवान् अत्र पश्यन्तु अन्वेषणं पदमपि ल्युडन्तपदं परन्तु साधारणतया ल्युडन्तपदात् पूर्वम् अत्र सीतायाः अन्वेषणं वयं जानीमः अयं पदप्रयोगः कथं पुस्तकस्य पठनं पुस्तकस्य पठनं करोमि तथा एव अत्र सीतायाः अन्वेषणं करोति ल्युडन्तपदम् अत्र ल्युट् प्रत्ययान्तरूपम् अन्वेषणं सीतायाः अन्वेषणं कृतवान् अत्र तत्र यदि वयं समासं समासस्य विषये इत्युक्ते समस्तपदं कृत्वा वदामश्चेत् सीतान्वेषणम् इति अपि वक्तुं शक्नुमः परन्तु अग्रे गत्वा वयं समासस्य विषये पठिष्यामः तदा किं ज्ञातुं शक्नुमः तदा तत्र षष्टिविभक्तेः लोपः जायते अथवा षष्टिविभक्तिः लुप्यते तत्र षष्टिविभक्तेः लोपं कृत्वा वदामश्चेत् सीतान्वेषणम् इति भवति तथा एव पुस्तकपठनं तदपि समीचीनं तत्र समीचीनरूपमेव एव परन्तु व्यस्तप्रयोगः समस्तप्रयोगः व्यस्तप्रयोगः इत्युक्ते सीतायाः अन्वेषणं व्यस्तप्रयोगः समस्तप्रयोगं कृत्वा वदामश्चेत् सीतान्वेषणं तथा भवति अनन्तरं परन्तु सीतां न दृष्टवान् तदा निराशतया सः एवं चिन्तयति निराशतया वदतु भगिनि विभक्तिः
निराशतया पञ्चमी विभक्ति
अत्र पश्यतु भगिनि सावधानतया
सावधानतया
तथा एव अत्रापि निराशतया
रमाया
अत्र उषा भगिनी भवती वदतु अत्र धन्यवादः भगिनी
तृतीया विभक्ति
तृतीया विभक्ति कथमस्ति भगिनी भवत्याः स्वास्थ्यं
ओके
सम्यक् अस्ति वा वक्तुं शक्नोति वा
आं भगिनि
अस्तु उत्तमम् अत्र निराशतया शब्दस्य तत्र विभक्तिः का
तृतीयविभक्ति
तृतीयविभक्ति प्रथमविभक्तिरूपं किं
निराशता
निराशता
त्रिलिङ्ग
दीर्घाकारान्तपदं सः एवं चिन्तयति अत्र पश्यन्तु सर्वे वयं जानीमः यदा तदा प्रयोगः
तदा
अत्र अस्ति वा यदा तदा प्रयोगः
परन्तु सीतां न तदा तत्र सर्वेषु ध्वनि सीताय अन्वेषणं परन्तु सीतां न दृष्टवान्
अत्र आचार्यमहोदय भवान् वदतु यदा तदा योजयित्वा वाक्यं वदतु
यदा अहं बहिः अगच्छं तदा वृष्टिः अभवत्
वृष्टिः अभवत् परन्तु अत्र अस्यां कथायाम् अत्रापि सन्दर्भः अस्ति यदा तदा सन्दर्भः यदा सः आञ्जनेयः सीतां न दृष्टवान् तदा सः निराशतया एवं चिन्तयति यदा सः न दृष्टवान् तदा सः एवं चिन्तयति तथापि वक्तुं शक्नुमः अनन्तरम्
अत्र अत्र तदा निराशतया अस्ति तृतीयविभक्ति पञ्चमविभक्ति अपि योजितुं शक् वयं प्रथम पञ्चमविभक्ति विभक्तेः उपयोगं कर्तुं शक्नुमः निराशात्
महोदय अत्र आशा इति त्रिलिङ्गपदं
निराशा ओके निराशात् निराश
अत्र निरुपसर्गपूर्वकः भगिनी वदतु निराश निराशा इति पदस्य पञ्चमी रूपं किं भगिनि वंशसुधा
निराशतयै
न भगिनि न भगिनि अत्र
पञ्चमी विभक्ति न भगिनि चतुर्थी निराशते निराशयाः
लतायाः
पञ्चमी विभक्ति वयं उपयोगं कर्तुं शक्नुमः
तस्मात् कारणात् इति वक्तुं शक्नुमः. अतः निराशायाः सः एवं चिन्तयति. चिन्तयित्वा सः किं कथं चिन्तयति? एवं चिन्तयति. एवम् इत्युक्ते एतादृशरीत्या अत्र दत्तमस्ति. एतादृशरीत्या चिन्तितवान् सः आञ्जनेयः. अत्र इतोपि किमस्ति
भगिनी? अत्र यदा इति पदं न उपयोगं न अस्ति, तदा कथम् अहम् उपयोगं करोमि भगिनि?
अत्र भगिनी अत्र पश्यतु, अत्र विषयः कः इत्युक्ते, वयं अत्र यदा प्रयोगः नास्ति, परन्तु अत्र सन्दर्भः तु अस्ति. इत्युक्ते अत्र वाक्यानि सन्ति, तत्र विषयं दृष्ट्वा वयं स्वयं वाक्यरचनां कर्तुं शक्नुमः. यदा आञ्जनेयः सीतां न दृष्टवान् तदा सः एवं रीत्या चिन्तयति इति अपि वक्तुं शक्नुमः. अत्र वार्ता अस्ति, वार्तां दृष्ट्वा वयं स्वस्य वाक्यं रचयितुं शक्नुमः.
अहं चिन्तयामि, भगिनी उक्तवती तदा उपयुज्य यदा पदस्य आवश्यकं नास्ति भगिनी, तदेव भवती पृच्छति वा?
इत्युक्ते अत्र यदा तदा प्रयोगम् इत्युक्ते युगलं द्वयं पदद्वयं योजयित्वा वाक्यं रचयामश्चेत् कथं रचनीयम् इति एव मम प्रश्नः. अत्र यदा पदं
मेबि ऐ मिस् अण्डर्स्टुड् ऐ थाट् शी वास् आस्किङ्ग् भगिनी इफ् तदा इस् देर् वै यदा इस् नाट् देर् इस् दट् वाट् युवर् सेयिङ्ग् भगिनी वंशी सुधा भगिनी?
पुनः वदतु भगिनि, तत्र किं चिन्तयति भवती?
तदा हियर् देन् दट् इस् वाट् मीनिङ्ग्.
यदि तदा उपयुज्य वाक्यम् अस्ति चेत् यदा पदस्य उपयोगं न आवश्यकम् अस्ति वा अस्ति, ऐ थिङ्क् शी वास् आस्किङ्ग् इफ् वै यदा इस् नाट् देयर्.
अत्र विषयः न कोऽपि नास्ति. अत्र किं वदामि इत्युक्ते अत्र यदा तदा योजयित्वा अपि वयं वाक्यं रचयितुं शक्नुमः, परन्तु यथा भूमा भगिनी उक्तवती तदा इत्युक्ते देन् ओन्लि. अत्र यदा सः न दृष्टवान् तदा इति अपि वक्तुं शक्नुमः, परन्तु अत्र तदा सः किं कृतवान्? तदा सः निराशतया चिन्तितवान्. त्यजामः. अनन्तरम् अत्र यदि अहं सीताम् अदृष्ट्वा एव किष्किन्धां गमिष्यामि तर्हि कः पुरुषार्थः साधितः भवति? अत्र उषा भगिनी वदतु, अत्र नगरस्य नाम किम्?
किष्किन्धां नगरं.
नगरस्य नाम किं?
नगरस्य नाम किष्किन्धां नगरं भगिनि.
अत्र पश्यतु, किष्किन्धा प्रथमा
किष्किन्धां
किष्किन्धाम् इति द्वितीयाविभक्त्यन्तरूपम्. अहं सीताम् अदृष्ट्वा, अत्र पश्यन्तु न दृष्ट्वा इति वदामः, न वदामः अत्र अदृष्ट्वा. यदि वयं क्वान्तरूपं योजयित्वा वदामश्चेत् अदृष्ट्वा, अकृत्वा, अपृष्ट्वा तथा वदामः. अत्र किष्किन्धां गमिष्यामि, अत्र यदि तर्हि प्रयोगः अपि अस्ति, यदि अहं सीताम् अदृष्ट्वा एव किष्किन्धां गमिष्यामि तर्हि किं भविष्यति? अद्य अस्माकं विषयः अस्ति यदि तर्हि अभ्यासपुस्तके वयं पठिष्यामः. अत्र यदि तर्हि प्रयोगः कृतः. अत्र पुरुषार्थः इत्युक्ते भवती किम् अवगतवती?
पुरुषार्थः लैक् बीङ्ग् अ मेन् कैण्ड् आफ़्.
अत्र सः चिन्तितवान् यदि अहं सीताम् अदृष्ट्वा किष्किन्धां पुनः प्रत्यागमिष्यामि तदा कः पुरुषार्थः साधितः मया?
What did I achieve like as a man?
पुरुषार्थः इत्युक्ते किं कार्यं साधितमस्ति मया तथा सः चिन्तितवान्. अत्र भविष्यति भवन्तः जानन्ति एव. अत्र शोभा भगिनी भवती वदतु अग्रिमं वाक्यं किं भवती किम् अवगतवती अग्रिमं वाक्यं पठित्वा वदतु.
सुग्रीवः तदा मां किं वा वदिष्यति? आञ्जनेयः चिन्तयति यदि तत् भवति तदा सुग्रीवः तदा मां किं वा वदिष्यति. सुग्रीवः किं वा वदिष्यति? सुग्रीवः किं चिन्तयति? तान् प्रेषितवन्तः मम
तत् वाक्यं सम्यक् रीत्या वदतु.
सः एव मां प्रेषितवन्तः सीतान्वेषणं
प्रेषितवान्
तानेव मां प्रेषितवान् सीतान्वेषणं कर्तुं अहं न साधितवान् तदेव सुग्रीवः किं किं वदिष्यति किं चिन्तयति सः निराशः भवति मां
तावदेव तदेव सुग्रीवः तदा मां किं वा वदिष्यति अन्ये वानराः अपि किं वा वदिष्यन्ति. अत्र पश्यतु सुग्रीवः वदिष्यति वानराः वदिष्यन्ति कर्तृप्रयोगे वाक्यानि इत्युक्ते कर्तृपदम् अनुसृत्य क्रियापदं सम्भवति अन्ये भवती प्रथमतया उक्तवती अत्र पश्यतु अन्ये शब्दः अस्ति अन्यशब्दः विशेषणत्वेन प्रयुक्तमस्ति अत्र अन्ये वानराः वयं जानीमः अन्यशब्दः अथवा सर्वशब्दः विशेषणानि विशेषणपदानि अत्र वानराः इति प्रथमाविभक्ति बहुवचनम् इति कृत्वा अत्र अन्यशब्दम् अन्यशब्दः अपि प्रथमाविभक्ति बहुवचने वक्तुं शक्नोति वा अत्र प्रथमाविभक्त्यन्तरूपाणि अन्यशब्दस्य
अन्यशब्दस्य भवती उक्तवती अन्यः रामः रामौ अन्यौ अन्याः
अत्र पश्यतु भगिनि अत्र किं भवति इत्युक्ते रामशब्दः अत्र रामः रामौ रामाः भवति परन्तु अत्र सर्वशब्दः वा अन्यशब्दः वा कथं भवति इत्युक्ते अन्यः यथा भवती उक्तवती अन्यौ
अन्ये
अन्ये तथा भवति तथा एव सर्वशब्दः अपि अत्र पुंलिङ्गे दत्तमस्ति
अन्यः सर्वौ सर्वे
तथा भवति तथा रूपाणि सम्भवन्ति अन्ये वानराः किं वा वदिष्यन्ति अनन्तरं किं चिन्तितवान् अग्रिमं वाक्यं करोतु.
अनन्तरम् अहम् अपि सीता न लब्धा इति रामं कथं वा वदिष्यामि? अहम् अपि सीता न लब्धा लब्धवान् मेलितवान्
अत्र पश्यतु भगिनि लब्धा इति पदं लब्धातोः क्षान्तरूपं लब्धातोः क्षान्तरूपं लब्धा अत्र कृत्वा न तत्र वयं किं पठितवन्तः पतिता तथा अक्तान्तरूपाणि अग्रे गत्वा वयं पठिष्यामः तथा एव अत्र अत्र पश्यतु लब्धा भिन्नं पदं लब्ध्वा
भिन्नं
भिन्नं अत्र प्रत्ययः भिन्न भिन्नप्रत्ययः लब्धा इति रूपं क्तान्तरूपं परन्तु लब्ध्वा इति वदामश्चेत् तत्र क्त्वा
क्तान्तरूपं अपि
गतः
भूतकालं
यथा महोदयः उक्तवान् गतः गता गतम् अत्र गत इति प्रातिपदिकमस्ति गतप्रातिपदिकम् इति कृत्वा अत्र त्रिषु लिङ्गेषु रूपाणि भवन्ति परन्तु गत इति पदं क्तान्तरूपं गम् धातोः क्तान्तरूपं गत परन्तु लब् धातोः रूपं लब्धा सीता न लब्धा नो चेत् वयं किं वक्तुं शक्नुमः क्तवत्वन्तं योजयित्वा अपि वक्तुं शक्नुमः सीता न लब्धवती परन्तु भूतकालार्थे अत्र क्तवत्वन्तरूपं वा अथवा क्तान्तरूपं वा रूपद्वयमपि भूतकालार्थे एव भवन्ति सीता न लब्धवती इति वदतु महोदय
भगिनि अत्र अक्ताप्रत्यय तत्र तृतीयविभक्तिः भवति वा सर्वदा मया कर्मणि प्रयोगे भवति वा तत्र
तत्र नियमाः सन्ति महोदय
अहं न गतः इति न भवति वा सम्यक् न भवति अहं न जानामि परन्तु अहं यदा अहं पुस्तके पठितवान् तदा तृतीयविभक्ति एव भवति मया न गतः
अत्र बहवः नियमाः सन्ति परन्तु तत्र नियमाः के इत्युक्ते तत्र कर्तृप्रयोग धातुं दृष्ट्वा इत्युक्ते अत्र धातुः कः धातुं दृष्ट्वा एव वयं वक्तुं शक्नुमः कर्मणि प्रयोगे वाक्यं रचयितुं शक्नुमः वा नो चेत् कर्तृप्रयोगे एव वक्तुं शक्नुमः वा इति वयं निर्णेतुं शक्नुमः इत्युक्ते अत्र धातुः कः तत्र गत्यर्थकधातुः अस्ति चेत् कर्मणि प्रयोगे अपि च कर्तृप्रयोगे वाक्यानि सम्भवन्ति क्तान्तरूपाणि सम्भवन्ति परन्तु अकर्मकधातुः अस्ति चेत् केवलं कर्तृप्रयोगे भवति अपि च श्लिषादयः इत्युक्ते अष्टधातवः सन्ति श्लिष् धातुम् आरभ्य धातुः आरभ्य अष्टधातवः सन्ति तस्य नाम अस्ति तेषां नाम अस्ति श्लिषादयः धातवः यदि श्लेषादयः धातवः सन्ति चेत् अपि तत्र कर्तृप्रयोगे वाक्यं सम्भवति तथा बहवः नियमाः सन्ति क्तान्तानां विषये क्तान्तप्रत्ययान्तानां विषये परन्तु गम् धातुः विशेषधातुः इति कृत्वा कर्तृप्रयोगे अपि वाक्यं रचयितुं शक्नुमः क्तान्तरूपं योजयित्वा कर्मणि प्रयोगे अपि वाक्यं रचयितुं शक्नुमः गम् धातुः विशेषधातुः गत्यर्थकधातुः इति कृत्वा तत्र तथा भवति अत्र लब् धातु सीता न लब्धा इति रामम्
एक प्रश्न सीता न लब्धा कर्मणि प्रयोगः अस्ति कर्तरिप्रयोगः अस्ति चेत् सीता न लब्ध
अत्र पश्यतु भगिनि सीता इति पदं कर्तृपदं लब्धा इति पदं सीतापदस्य विशेषणं सीता न लब्धा सीतापदस्य विशेषणम् एव लब्धा परन्तु अत्र वाक्यं कर्मणि प्रयोगे नास्ति कर्तृप्रयोगे एव अस्ति सीता न लब्धा आसीत् इति वाक्यं
धन्यवादः भगिनि
सीता न लब्धा आसीत् अत्र वाक्यं कर्मणि प्रयोगे नास्ति
धन्यवादः
अस्तु सीता न लब्धा इति तत् विशेषणं तु न भवति न भगिनि
सीतापदस्य विशेषणम् एव
लब्धा परन्तु आञ्जनेयः सीता न लब्धा
यदि कर्मणि प्रयोगे वक्तुमिच्छति चेत् आञ्जनेयेन
आञ्जनेयेन सीता न लब्धा
इति भवितुं शक्नोति, परन्तु तत्र अत्र लब्धधातुः कीदृशधातुः इति चिन्तयित्वा एव वयं वाक्यं रचयितुं शक्नुमः. तत्र नियमाः सन्ति, अग्रे गत्वा पठिष्यामः. अनन्तरम् अत्र इति रामं कथं वा वदिष्यामि, सीता न लब्धा इति विषयं कथं वा वदिष्यामि इति सः चिन्तयति. अनन्तरं किं भवति?
अनन्तरं यदि अहं तथा वदिष्यामि तर्हि रामः प्राणान् त्यक्षति.
अत्र लट्लकाररूपं किं भगिनि वदतु?
लट्लकाररूपं यदि अहं वदिष्यामि त्यक्ष्यति.
अत्र अत्र भविष्यत्काल भविष्यत्काल
लट्लकार प्रेसेंट टेन्स् वर्तमानकालम् अस्ति. यदि अहं तथा वदिष्यामि तत्तु भविष्यत् लुट् लुट्लकारे सन्ति.
अत्र 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 पदद्वयमपि अस्मिन् वाक्ये पदद्वयं लृट्लकारे अस्ति, परन्तु अहं केवलं पृच्छामि लट्लकाररूपं वदतु.
यदि अहं तथा वदामि तर्हि रामः प्राणान् त्यजति.
उत्तमं, प्राणान् त्यजति अत्र. उत्तमम् उत्तमं, तदेव. अनन्तरम् अत्र त्यज् धातुः सकर्मकः, अतः प्राणान् 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 विभक्तिः का?
प्राणान् प्राण प्राणं नो प्राणः
न न विभक्तिः का?
विभक्ति
विभक्ति
प्राणान् प्राणान् कर्मपदं बहुवचनं द्वितीया विभक्ति.
उत्तमम्. इत्युक्ते अत्र प्राणशब्दः सर्वदा बहुवचने एव भवति, प्राणान् सर्वदा बहुवचने एव तस्य उपयोगः भवति. प्राणान् किमर्थं चेत् तत्र पञ्चप्राणाः सन्ति इति कृत्वा.
प्राणं वा भवति वा भगिनि? प्राणं
साधारणतया प्राणान् इत्युक्ते अत्र केचन शब्दाः बहुवचने एव सम्भवति, यथा आपः इति पदमस्ति. आपः इत्युक्ते जलं. संस्कृतभाषायां केचन नियमाः सन्ति, आपः इति शब्दः सर्वदा सर्वदा बहुवचने एव प्रयोक्तव्यः. तथा एव अत्र प्राणाः पञ्चप्राणाः इति कृत्वा. अनन्तरम् अत्र त्यजति इति पदस्य लुट्लकाररूपं त्यक्ष्यति. अनन्तरं वदतु.
तदा लक्ष्मणः अपि मरिष्यति यदि रामः.
मरिष्यति इति पदस्य लट्लकाररूपं किं?
मरति मरति
अत्र चिन्तयतु न भगिनि. अत्र
मरिष्यति
मारयति
न भगिनि. अत्र मारयति इति निजन्तरूपं. वंशसुधा भगिनी वदतु वदतु भगिनि.
मरिष्यति न जानन्तु मरिष्यति.
अत्र अत्र पश्यन्तु, अत्र मृ वयं जानीमः एव, किञ्चित् ध्वनिः अस्ति अत्र. कुत्र किञ्चित् म्यूट् करोमि. अत्र अत्र मृधातुः अस्ति, यथा क्रूधातुः मृधातुः उभयविधातुः. म्रियति लट्लकाररूपं म्रियति अस्ति, अपि च म्रियते यथा करोति कुरुते. अत्र अजन्तधातुः ऋकारान्तधातुः मृ मृ इति धातुतः म्रियति म्रियते उभयपदिधातुः इति कृत्वा अत्र रूपद्वयं सम्भवति. अत्र मारयति मारयति इति णिजन्तरूपम्. अत्र मृ इति धातुतः मारि इति णिजन्तधातुः आगच्छति. अत्र अचोयणिति इति सूत्रेण अत्र मृ धातुतः मारि इति अत्र आतिदेशिकधातुः उपदेशावस्थायाम् औपदेशिकधातुः इति वदामः. तत् औपदेशिकधातुतः आतिदेशिकधातुः आगच्छति. आतिदेशिकधातुः मारि मारि इति पदार्थ मारयति. अत्र णिच् प्रत्यान्तरूपम् इति सम्भवति. परन्तु अत्र अस्माकं विषयः अस्ति मरिष्यति इति पदस्य रूपं म्रियति अथवा म्रियते. अग्रिमं पठतु भगिनि. शोभा भगिनि पठतु अग्रिमं वाक्यं किम्.
ओ सारि
भगिनि
तां वार्तां श्रुत्वा भरतः शत्रुघ्नः च प्राणान् त्र्यक्षतः.
अत्र वदतु लिङ्गवचनविभक्तिः विभक्तिं वदतु.
तां द्वितीयविभक्ति
क्षम्यतां लिङ्गवचनविभक्तिः नास्ति. अत्र क्रियापदम् इति कृत्वा अत्र पुरुषः कः वचनं किम्.
प्रथमपुरुषः तां सः पदस्य द्वितीयविभक्ति तां वार्तां वार्तां कर्मपदं द्वितीयविभक्ति श्रुत्वा त्वान्तपदं शृणोति श्रुत्वा भरतः शत्रुघ्नः च प्राणान् प्राणान् बहुवचने द्वितीयविभक्ति त्र्यक्षतः भविष्यत्कालस्य रूपं त्यजति त्यक्तः अस्ति वा बहुवचने लट्
भगिनि शोभा भगिनि अत्र पश्यतु अत्र भ्रमः मास्तु अत्र कन्फ्यूजन् मास्तु. अत्र सुबन्तपदानां कृते अत्र सुबन्तपदानां कृते विभक्तयः सन्ति. परन्तु तिङ्गन्तपदानां कृते पुरुषः प्रथमपुरुषः मध्यमपुरुषः उत्तमपुरुषः क्रियापदानां कृते अत्र त्यक्ष्यतः यथा भवती उक्तवती भविष्यत्कालरूपं रुट् लकाररूपं. परन्तु वचनं किं.
वचनं बहुवचनं द्विवचनं.
किमर्थं.
शत्रुघ्नः भरतः च त्र्यक्षतः पठति पठतः पठन्ति.
उत्तमं तावदेव.
त्यजति त्यजतः त्यजन्ति.
भगिनि क्षम्यतां ताम् इति सा इति द्वितीयवचनं द्वितीयवचनमेव अस्ति न भगिनि. वार्ता स्त्रीलिङ्गे अस्ति ताम् इति
अत्र पुनः वाक्यं पठतु भगिनि. अत्र वंशसुधा भगिनी भवती पठतु तां तदेव वाक्यं.
तां वार्तां श्रुत्वा भरतः शत्रुघ्नः च प्राणान् त्यक्षतः.
अत्र तां वार्तां वदतु. तां वार्तां तयोर्मध्ये सम्बन्धः कः.
वार्तां विशेष्यमस्ति. तां वार्तां विशेषणमस्ति.
तावदेव. विभक्तिः
विभक्ति स्त्रीलिङ्गे अस्ति इति अहं चिन्तयामि. किमर्थं भगिनी सः इति उक्तवती तत् कारणम् अहं चिन्तयामि.
भगिनी सम्यक् उक्तवती. सः नास्ति. वार्ता स्त्रीलिङ्गे अस्ति इति कारणेन तां वार्ताम्
इत्युक्ते अत्र प्रथमविभक्त किं वदामः. सा वार्ता सा वार्ता अस्ति. तां वार्तां शृणोति.
अत्र प्राणान् इति किमर्थं बहुवचने अस्ति. अत्र क्रियापद अस्ति द्विवचन अस्ति. प्राणान् प्राणौ न भवति वा.
अत्र वयं पठितवान् अहं पूर्वमेव उक्तवती महोदय, अत्र प्राणान् इति सर्वदा बहुवचने एव भवति,
बहुवचन नित्य बहुवचन ओके
नित्य बहुवचन अतः चाम
पञ्चप्राणान् पञ्च उपप्राण उपप्राणान् अपि अस्ति,
धनञ्जय
प्राण अपान ज्ञान उदान सर्वे अपि गच्छति
उत्तमं. तां वार्तां श्रुत्वा भरतः शत्रुघ्नः च प्राणान् त्यक्षतः. अनन्तरम् अत्र भूमा, धन्यवादः भगिनी शोभा भगिनी. भूमा भगिनी वंशसुधा भगिनी भवती करोति वा अग्रिमं वाक्यम्?
आं भगिनि. ततः पुत्रशोकेन कौशल्या सुमित्रा कैकेयी च अपि मरिष्यन्ति. ततः पुत्रशोकेन इति तृतीया विभक्ति अस्ति. कैकेयी सुमित्रा च अपि सन्धिकार्यं मरिष्यन्ति इति मृधातु अस्ति, म्रियते इति बहुवचनरूपम् अस्ति, भविष्यत् कालं रूपमस्ति लुट् लकारः म्रियति.
अत्र बहुवचने किमर्थं
सुमित्रा कौशल्या कैकेयी त्रीणि मात्राणि सन्ति, मात्रत्रयम् अस्ति, मातात्रयम्
अथवा राज्ञः. वदतु महोदय.
तिस्रः महिलाः.
तिस्रः महिलाः
सम्यक्.
तिस्रः तिस्रः मातरः.
मातरः आम् माता मातरौ मातरः आम्
अत्र अथवा राज्ञी राज्ञी इति वदामः चेत् राज्ञः. राजा शब्दस्य स्त्रीलिङ्गरूपं किं भवति? अत्र वयं जानीमः राजा, राजा इति पदं नकारान्तपदं राजा इति वयं जानीमः, परन्तु स्त्रीलिङ्गे राज्ञी राज्ञी
इकार प्रातिपदिकं किम् अस्ति भगिनि?
अहं चिन्तयामि नदी शब्दवती इति अहं चिन्तयामि.
ओ राज्ञी राज्ञौ राज्ञः
राज्ञी इति प्रथमाविभक्त्यन्त एकवचनरूपम् उत्तमम् अत्र मरिष्यन्ति. अग्रिमं वाक्यं वदतु.
रामस्य मरणं ज्ञात्वा सुग्रीवः प्राणान् न धरिष्यन्ति. धरिष्यति रामस्य इति षष्ठी विभक्तमस्ति. मरणं कर्मपदम् अस्ति, द्विवचने अस्ति. ज्ञात्वा इति
भगिनी अत्र पश्यतु मरणं यथा स्नाति इति पदात् किञ्चित् म्यूट् करोमि, ध्वनिः अस्ति. किमर्थम् अत्र मरणम् इति पदमस्ति, मरणम् इति पदं ल्युडन्तपदं ल्युट् प्रत्ययान्तरूपं. स्नाति स्नाति इति पदात् स्नानं, पठति इति पदात् पठनं, तथा एव अत्र म्रियति अथवा म्रियते इति पदात् मरणम् इति ल्युडन्तपदम् आगच्छति. अत्र मरणं कस्य मरणं? रामस्य मरणं. रामस्य मरणं ज्ञात्वा सुग्रीवः प्राणान् न धरिष्यति. सुग्रीवः न धरिष्यति. किं न धरिष्यति? प्राणान् न धरिष्यति इति वक्तव्यं. धरिष्यति भगिनी वदतु. धरिष्यति इति पदस्य लट्लकाररूपं किं?
धरति
धरति. वयं पूर्वमेव पठितवन्तः अत्र ध्रुधातुः अस्ति. ध्रुधातोः साधारणरूपं धरति, निजन्तरूपं धारयति. वयं पूर्वं पठितवन्तः ध्रुधातोः धृतवान् धृतः इति क्रान्तरूपं, धृतवान् क्रवसन्तरूपं. परन्तु निजरूपं धारयति इति कृत्वा तत्र क्रान्तरूपं धारित धारितवान् इति भवति. तत्रापि अचोयुणिति इति सूत्रं कार्यं करोति. ध्रुधातुतः धारि इति आतिदेशिकधातुः, आतिदेशिकधातुः इत्युक्ते नूतनधातुः. ध्रुधातुतः धारि इति आगच्छति, तस्मात् धारयति इति रूपम् आगमिष्यति. अनन्तरम् अग्रिमं वाक्यं वदतु.
आम् ततः तस्य पत्नी रुमा बाली पत्नी तारा च प्राणा न धरिष्यतः.
वचनं किं
धरिष्यतः इति प्रथमाविभक्तौ द्वितीय द्विवचने अस्ति.
अत्र पदं तिङन्तपदं क्रियापदम् इति कृत्वा विभक्तिः इति न वदामः. किं वदामः?
वचनं वचनं
वचनं किम् अपि च पुरुषः कः?
आम् क्षम्यतां क्षम्यताम्
उत्तमम्. अत्र पुरुषः अत्र तस्य पत्नी रुमा वाली पत्नी तारा च प्राणान् न धरिष्यतः. सर्वे पश्यन्तु अत्र सर्वदा प्राणान् प्राणान् एव लिखितमस्ति. अत्र अग्रिमं वाक्यं पठतु.
तत्पश्चात् कुमारः अङ्गदः मरणं प्राप्स्यति.
लट्लकारे वदतु एतदेव वाक्यं.
तत्पश्चात् कुमारः अङ्गदः मरणं प्राप्नोति.
उत्तमम्.
अग्रिमं प्राप्नुतः इति कुमारः अङ्गदः द्वे अस्ति. प्राप्नुतः
अत्र पश्यतु भगिनी, अहं चिन्तितवती भवती अवगतवती इति अहं चिन्तितवती, परन्तु अत्र
मरणं
अत्र पश्यतु तत्पश्चात् तदनन्तरम् अङ्गदः मरणं प्राप्स्यति. अत्र कुमारः अङ्गदः तयोर्मध्ये सम्बन्धः कः?
ओ कुमारः अङ्गदः. आं क्षम्यताम् अहं चिन्तयामि. ओके कुमारः विशेषणमस्ति, अङ्गदः विशेष्यमस्ति.
अत्र
एकमेव अस्ति
इत्युक्ते अत्र एकः एव कुमारः अङ्गदः. अत्र पश्यतु अङ्गदः प्राप्स्यति. यदि पुरुषद्वयमस्ति चेत् यथा भवती उक्तवती प्राप्स्यतः. अत्र कुमारः अङ्गदः मरणं प्राप्स्यति. लट्लकारे वदामश्चेत् अङ्गदः मरणं प्राप्नोति. अनन्तरं वदतु.
तदा तस्य प्रियाः वानराः दुःखेन मुष्टिभिः मस्तकान् ताडयिष्यन्ति.
अत्र मुष्टिभिः वदतु तस्मिन् विषये.
मुष्टिभिः तृतीयविभक्ति बहुवचनरूपमस्ति.
बहुवचनमस्ति परन्तु लिङ्गं किं?
तृतीयविभक्तौ मुष्टिभिः स्त्रीलिङ्गे अस्ति भगिनि. मुष्टिः
स्त्रीलिङ्गं वा?
अहं न जानामि. स्त्रीलिङ्गे अपि अस्ति. हरिभिः मुष्टिः स्त्रीलिङ्गे अस्ति. पुरुष मस्तकान् तारिष्यति.
अत्र भूमा भगिनी भवती किं चिन्तयति? भवती दृष्टवती वा अत्र मुष्टिः इति पदम्? अहं दृष्टवती. तदर्थं वदामि मुष्टिः इति पदं पुंलिङ्गपदम् इति तथा अहं दृष्टवती.
परन्तु रूपं बहुवचने स्त्रीलिङ्गे अपि पुंलिङ्गे अपि मुष्टिभिः एव अस्ति न भगिनि?
अत्र तथा एव भवति. अत्र मुनिभिः अथवा यथा भवती उक्तवती हरिभिः तथा एव पुंलिङ्गे अपि च स्त्रीलिङ्गे अपि रूपं समानं. तृतीयबहुवचनं मस्तकान् ताडयिष्यन्ति. के ताडयिष्यन्ति?
वानराः ताडयिष्यन्ति.
किं ताडयिष्यन्ति?
मस्तकान् ताडयिष्यन्ति.
अत्र मस्तकान् लिङ्गं किम्?
मस्तकः बहुवचनरूपं द्वितीयविभक्ति कर्मपदमस्ति.
कर्मपदम् इत्युक्ते शिरः शिरः शिरसि शिरहि
शिरः
शिरांसि इति भवति. उत्तमम्. अग्रिमं वाक्यं
प्राणत्यागं च करिष्यन्ति केऽपि वानराः ततः क्रीडासुखं न अनुभविष्यन्ति.
अनुभविष्यन्ति क्रीडासुखं न अनुभविष्यन्ति वानराः. वानराः न अनुभविष्यन्ति किं न अनुभविष्यन्ति?
क्रीडासुखं न अनुभविष्यन्ति.
के न अनुभविष्यन्ति? वानराः.
वानराः
अत्र केऽपि केऽपि इति पदमस्ति. केऽपि तत्र सन्धि सन्धेः नाम किं?
पूर्वरूपसन्धि भगिनि.
पूर्वरूपसन्धिः. उत्तमम्. अत्र ए अत्र एङ्गः पदान्तादति इति सूत्रेण सूत्रेण अत्र
अत्र
चिह्नस्य नाम किम्?
अवग्रहः.
अवग्रहः अत्र यस् यस् इति शोभा भगिनी अत्र पश्यति यस् इति दत्त तत्र लिखितमस्ति तस्य नाम अस्ति अवग्रहचिह्नं. केऽपि वानराः ततः क्रीडा ततः इति दत्तमस्ति. ततः इत्युक्ते अत्र किं?
ततः इत्युक्ते तदनन्तरं तदनन्तरं
तदनन्तरं तदनन्तरं वानराः क्रीडासुखं न अनुभविष्यन्ति ते शिलाग्रेभ्यः अधः पतिष्यन्ति विषं वा पास्यन्ति उपवासव्रतं वा आचरिष्यन्ति. अस्मिन् वाक्ये पदत्रयमपि लृट्लकारे अस्ति. लट्लकारे वदतु एतदेव वाक्यं.
तिला शिलाग्रेभ्यः शिला इति स्त्रीलिङ्गे अस्ति चतुर्थी विभक्तौ स्त्रीलिङ्गे अस्ति बहुवचनरूपं शिलायै शिलायै भगिनि ते शिलायै
न भगिनि अत्र पश्यतु अत्र अहं किं पृष्टवती अहं किं पृष्टवती इत्युक्ते अत्र प्रथमतया लट्लकारे वाक्यं वदतु परन्तु अत्र अत्र शृणोतु अत्र शिलाग्रेभ्यः अधः इति वा अत्र पदमस्ति अत्र शिलाग्रेभ्यः इति पदस्य विभक्तिः का?
अहं चिन्तयामि चतुर्थविभक्ति बहुवचनरूपम् अस्ति खलु
अत्र पश्यतु शिलाग्रेभ्यः अधः
अधः आं क्षम्यताम् अधः पूर्वं पञ्चमी भक्तमस्ति. आम्
वयं पूर्वं पठितवन्तः किं पठितवन्तः उपपदविभक्तयः
उपपदविभक्तयः
उपरि
अधः उपरि
अधः उपरि अतः अत्र शिलाग्रेभ्यः अधः विभक्तिः पञ्चमी. अधुना वदतु वाक्यं वदतु अधुना
पतिष्यन्ति पतति इति रूपं लट्लकाररूपं विषं वा पास्यन्ति पिबति पिबन्ति पिबन्ति उपवासव्रतं वा आचरिष्यन्ति आचरन्ति
पूर्णं सम्पूर्णतया पूर्णं वाक्यम् उत्तमरीत्या लट्लकारे वदतु.
ते शिलाग्रेभ्यः अधः पतन्ति विषं वा पिबन्ति उपवासव्रतं वा आचरन्ति.
उत्तमं सुन्दररीत्या उक्तवती. एवं सम्पूर्णः रघुवंशः वानरवंशाश्च विनङ्क्ष्यतः. अत्र अत्र वदतु क्रियापदं किम् अस्मिन् वाक्ये? क्रियापदं
क्रियापदम् ओ अहं कर्मपदं विनङ्क्ष्यतः क्रियापदं
वचनं किं
वचनं द्विवचनमस्ति
किमर्थम्
सम्पूर्णरत्नं सम्पूर्ण रघुवंशः वानरवंशः द्वे वंशः अस्ति द्वौ वंश
द्वौ वंशौ
वंशौ द्वौ वंशौ
अत्र एवं रीत्या सम्पूर्णः रघुवंशः अपि च वानरवंशः च अत्र पश्यतु वानरवंशश्च अत्र विसर्गसन्धिः अस्ति वानरवंशश्च विनङ्क्ष्यतः अत्र अहम् एकं करपत्रं प्रेषितवती तत्र द्वितीयं करपत्रम् अत्र भूमभगिनी भवत्याः पार्श्वे अस्ति वा द्वितीयं करपत्रं
भगिनी एकः प्रश्नः अन्ये इति पदं सः पदं वत् अस्ति सः तौ ते अन्यः अन्यौ अन्ये इति अन्यपदमपि समानमेव अस्ति भगिनि अन्यः अन्यौ अन्ये
तथा एव यथा भवती उक्तवती सः तौ ते अपि वक्तुं शक्नुमः परन्तु सर्वशब्दं जानीमश्चेत् अन्यशब्दमपि वक्तुं शक्नुमः अत्र वदतु
समानरीत्या अस्ति भगिनि सर्वः अपि सः इति अहं चिन्तयामि समानमेव अस्ति सः इति अहं जानीमः जानामि इति कारणम् चिन्तयामि स अन्यः शब्दः सर्व सः शब्दवत् अस्ति
तथापि वक्तुं शक्नुमः भवती एव पठतु अत्र द्वितीयं करपत्रमस्ति द्वितीयं करपत्रं दृष्ट्वा सर्वे द्वितीयं करपत्रं पश्यन्तु तत्र अत्र नङ्क्ष्यतः इति रूपं दत्तमस्ति अत्र नष्धातोः रूपाणि दत्तानि अत्र विकल्पेन अत्र रूपद्वयम् एकवारं पठतु भगिनि पदानि पठतु
नशिष्यति नङ्क्ष्यति नशिष्यतः नङ्क्ष्यतः नशिष्यन्ति नङ्क्ष्यन्ति नशिष्यसि नङ्क्ष्यसि नशिष्यतः नङ्क्ष्यतः नशिष्यथ नङ्क्ष्यथ नशिष्यामि नङ्क्ष्यामि नशिष्यावः नङ्क्ष्यावः नशिष्यामः नङ्क्ष्यामः
उत्तमम् तावदेव उत्तमं धन्यवादः भगिनि
अत्र नकारः कथम् आगच्छति भगिनि द्वयो समानपदमेव अस्ति भगिनि परन्तु पदद्वयं किम् अस्ति भगिनि इति अहं चिन्तयामि
रूपद्वयं किमर्थम् इति रूपद्वयं किमर्थम् अत्र तत्रापि बहूनि सूत्राणि सन्ति अहं चिन्तयामि अत्र विकल्पेन रूपद्वयं सम्भवति तथा अत्र साधारण नवरूपाणि अपि च अन्यानि नवरूपाणि
सन्ति
उत्तमं तथा किमर्थम् इति अहमपि सम्यक् न जानामि परन्तु तत्र सूत्राणि सन्ति इति अहं चिन्तयामि उत्तमम् अनन्तरम् अत्र गीताञ्जलिः भगिनी भवती पठतु अत्र द्वितीये परिच्छेदे किं दत्तमस्ति वयं किं पठामः अत्र गीतासोपानात् एकां कथां पठामः
आं भगिनि
पठतु अतः आरभ्य पठतु द्वितीयं परिच्छेदं पठतु
अतः अहं सीताम् अदृष्ट्वा इतः किष्किन्धां न गमिष्यामि इत्युक्ते आञ्जनेयः इति मन्ये अहं यदि किष्किन्धां यदि अहं किष्किन्धां सीतां दृष्ट्वा विना गमिष्यामि तदनन्तरं बहु असमीचीनं करिष्यामि
भविष्यति असमीचीनं
अतः आञ्जनेय निश्चय करिष्यामि
भगिनी भगिनी अत्र प्रथमतया परिच्छेदं पठतु अनन्तरं स्वस्य वाक्यैः वदतु.
अस्तु 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 महोदय. अहम् प्रथम विभक्ति एकवचनं
पूर्णतया परिच्छेदं पठतु एकवारम् अस्माकं कृते. अहं सीताम् आरभ्य पूर्णं सम्पूर्णतया पठतु प्रथमतया, अनन्तरं चिन्तयामः.
अस्तु अस्तु महोदय. अतः अहं सीताम् अदृष्ट्वा इतः किष्किन्धां न गमिष्यामि, यतः अहं सुग्रीवं द्रष्टुं न शक्ष्यामि. अहम् अत्रैव वानप्रस्थव्रतं ग्रहीष्यामि, ततः चिन्तां प्रवेक्ष्यामि अथवा जलं प्रवेक्ष्यामि. तदा मम शरीरं मृगाः काकाः वा भक्ष्येष्यन्ति अथवा अहं तापसः भविष्यामि, अत्रैव जीविष्यामि, नैव प्रतिगमिष्यामि.
अनन्तरम् अग्रिममपि पठतु.
एवं बहुविधं चिन्तनं कृत्वा अन्ते आञ्जनेयः अहम् अशोकवने अन्वेषणं न कृतवान्, तत्रापि करोमि इति निश्चयं कृत्वा अशोकवनं गच्छति, तत्र सीतां च पश्यति.
उत्तमम् उत्तमम्. अत्र अस्मिन् परिच्छेदे लृट्लकाररूपाणि कानि भगिनि वदतु.
लृट्लकारे गमिष्यामि, प्रथमपदं गमिष्यामि, उत्तम पुरुष एकवचन, शक्ष्यामि समानेव प्रथम उत्तमपुरुष एकवचन, शक्ष्यामि इत्युक्ते शक्नोति लट्लकारे. अनन्तरं ग्रहीष्यामि,
लट्लकाररूपं वदतु.
लट्लकारे शक्नोमि
शक्नोमि. अनन्तरं
ग्रहीष्यामि इत्युक्ते स्थापयामि.
न न भगिनि, उत्तमम् उत्तमम्. ग्रहीष्यामि इति पदस्य लट्लकाररूपं किं भवती जानाति?
ग्रहीष्यति
महोदयः उक्तवान् अत्र अत्र. क्षमा भगिनि वदतु.
गृह्णामि
गृह्णामि.
अनन्तरम् अग्रिमं पदं वदतु भगिनि. प्रवेक्ष्यामि, अत्र लट्लकाररूपं किं?
प्रवेक्ष्यामि प्रविशति.
उत्तमं. प्रविशामि उत्तमम्. अनन्तरम् अत्र भक्षयिष्यन्ति, अत्र रूपं किं लट्लकाररूपं?
भक्ष्यति.
वदतु. भक्षयति भक्षयन्ति, तदर्थमेव अत्र भक्षयिष्यन्ति इति अस्ति. अपि च अथवा अहं तापसः भविष्यामि, अत्रैव जीविष्यामि. अत्रैव अत्र सन्धिः कः?
अत्र अकारयोगः इकारः वृद्धिसन्धि भवति.
वृद्धिसन्धिः अत्र योगः
भवति.
अत्र योगः एव
एकार
अत्र योगः एव अत्रैव वृद्धिरेचि इति सूत्रेण अत्र अत्रैव अत्रैव जीविष्यामि नैव प्रतिगमिष्यामि इति सः चिन्तितवान्। अत्र एकं पदमस्ति वानप्रस्थः इति पदमस्ति, वयं जानीमः गृहस्थः, यः गृहे तिष्ठति सः गृहस्थः। अत्र वान इति पदमस्ति, वानपदम् इत्युक्ते अत्र वनानां समूहः वानम्, वनानां समूहः वानं, तत्र
वदतु भगिनि वानः।
अत्र वान इति पदमस्ति, वान इत्युक्ते अत्र वन इति पदात् आगतं, वनानां समूहः वान तद्धितप्रत्ययम् इति वदामः, इत्युक्ते अत्र वनशब्दात् वान इति पदम् आगतं, वानप्रस्थः वान, अपि च प्र इति उपसर्गः, स्थाधातुः वयं जानीमः स्थाधातुतः तिष्ठति इति रूपम् आगच्छति, अत्र वानप्रस्थः इत्युक्ते यः वनेषु निवसति, वनेषु वसति सः एव वानप्रस्थः, यः गृहे वसति सः गृहस्थः, तदा वदामः वनानां समूहः वानम् अत्र तथा भवति। अनन्तरम् अत्र शिलाग्रेभ्यः अत्र तदा भवत्, अनन्तरम् एवं बहुविधचिन्तनं कृत्वा अन्ते आञ्जनेयः अहम् अशोकवने अन्वेषणं न कृतवान् तत्रापि करोमि इति निश्चयं कृत्वा अशोकवनं गच्छति, तत्र सीतां च पश्यति। उत्तमम् उत्तमम्। अद्य वयं किञ्चित् केवलं पञ्चनिमेषपर्यन्तं किञ्चित् कुर्मः अत्र सम्बोधनरूपाणां विषये। अत्र भूमा भगिनी भवती करोति वा, अत्र अभ्यासपुस्तके अत्र नूतनविषयः अस्ति सम्बोधनरूपाणि इति दत्तमस्ति, सम्बोधनरूपाणि 13.1 भागे अभ्यासपुस्तकं, सर्वे अभ्यासपुस्तकं पश्यन्तु एकवारम्। अत्र भूमा भगिनी भवती करोति वा, अस्ति वा, नो चेत् अत्र उषा भगिनी भवती पठतु अत्र अभ्यासपुस्तके 13.1 पठतु।
सम्बोधनरूपाणि: रामः, कृष्णः, गोविन्दः, गौरी, मित्रम् इत्यादीनां सर्वेषां शब्दानां सम्बोधनरूपाणि भिन्नानि भवन्ति। रामः, कृष्णः, गोविन्दः, गौरी, मित्रम्। ओके, यथा रामः राम, कृष्णः कृष्ण, गोविन्दः गोविन्द, हरिः हरे, गुरुः गुरो, राजा राजन्, महाराजः महाराज, महोदयः महोदय, पिता पितः, सीता सीते, रमा रमे, मान्या मान्ये, गौरी गौरी, भगिनी भगिनी भगिनी, लक्ष्मीः लक्ष्मी, अम्बा अम्ब, माता मातः।
उत्तमं। वयं जानीमः एव सम्बोधनरूपाणि, अत्र अहं केवलम् एकं वक्तुमिच्छामि, साधारणतया सम्बोधनरूपाणि एकवचने एव किञ्चित् भिन्नानि भवन्ति, परन्तु द्विवचने अपि च बहुवचने रूपाणि यथा प्रथमाविभक्त्यन्तरूपाणि सम्भवन्ति तथा एव द्विवचने अपि च बहुवचने रूपाणि प्रथमाविभक्तिवत् भवन्ति, परन्तु केवलम् एकवचने एव सम्बोधनरूपाणि किञ्चित् भिन्नानि प्रथमाविभक्तितः। अपि च अत्र सम्बोधनविषये साधारणतया हे भोः, अये अयि, रे इति एतानि पदानि सम्बोधनारूपात् पूर्वं योजयित्वा वदामः कथं हे राम रे कृष्ण अयि गौरी वयं जानीमः अयि गिरि नन्दिनि नन्दितमोदिनि तत्र अयि अयि इति सम्बोधनरूपम् तत्र एतानि पदानि हे भोः अये अयि रे एतानि पदानि अव्ययानि तेषां किमपि कोऽपि अर्थः नास्ति केवलम् अव्ययपदानि परन्तु सम्बोधनारूपाणां तेषां पूर्वं योजयित्वा तेभ्यः पूर्वं योजयित्वा वयं साधारणतया वदामः अत्र उषा भगिनी भवती एव
अयि यकारः अथवा इकारः भगिनि इकारः
यकारः इ अयि अयि गिरिनन्दिनि तत्र अयि इति अयि अत्र गौरी अयि गौरी रे कृष्ण हे राम भोः राम तथा एतानि पदानि सम्बोधनरूपात् पूर्वं योजयित्वा वदामः अनन्तरम् अत्र शोभा भगिनी भवती करोतु अत्र रामः इति पदं तत्र परिवर्तनं कथम् अभवत् तत्र किम् अभवत्
यथा रामः राम विसर्ग
राम
लोपः
इत्युक्ते तत्र सम्बोधने विसर्गः न दृश्यते कृष्णः वदतु कृष्णः वदतु
कृष्णः तत्रापि विसर्गलोपः भवति कृष्णः कृष्ण एव
गोविन्दः
गोविन्दः गोविन्द विसर्गलोपः
विसर्गलोपः
हरिः हरिः विसर्गलोपः भवति अपि इकारः इकार एकारं भवति
एकारः
भवति
एकारः भवति गुरुः किमर्थम् इत्युक्ते अत्र यदि हरिः इति पदम् इकारान्तपदम् इति कृत्वा इकारान्तपदस्य सम्बोधनारूपम् ए तत्र इकारस्य स्थाने ए आगच्छति विसर्गः लुप्यते विसर्गः अथवा विसर्गः न दृश्यते अनन्तरम् अत्र गुरुः तत्र किम् अभवत्
गुरुः विसर्गः लुप्यते अपि उकारः ओकारः भवति
भूत्वा किम् अभवत् अन्तिमं रूपं किम् अभवत्
कस्य भगिनि
गुरो भवति उत्तमम् अनन्तरम् अग्रिमं राजा अत्र किम् अभवत्
राजा पदस्य प्रातिपदिकं राजन् अस्ति अत्र राजा राजन् भवति
अनन्तरम् अत्र पश्यन्तु राजा इति पदं नकारान्तपदं परन्तु महाराजः इति पदम् अकारान्तपदं तदा किमर्थम् इत्युक्ते अत्र महाराजः इति पदं समस्तपदम् समस्तपदम् इत्युक्ते तत्र समासः अस्ति परन्तु समस्तपदम् अस्ति अपि च अकारान्तपदं महाराज इति प्रातिपदिकमस्ति तत्र तदर्थमेव अत्र महाराजः इति पदस्य सम्बोधनरूपं महाराज यथा रामशब्दवत्
राम
अपि च महोदयः किम् अभवत्
महोदयः महोदय विसर्गः लिप्यते अपि महोदय भवति
पिता किम् अभवत्
पिता प्रातिपदिकं शब्दः पिता दीर्घ आकारस्य स्थाने opposite of dirgha what is in sanskrita bhagini pita
hrasva
hrasva akarah bhavati api visargah bhavati pitah pita shabdasya pitah
atra pita iti rukarantapadam api cha dirghatvam ह्रस्व यथा भवती उक्तवती ह्रस्वः अभवत् अपि च
पितृप्रातिपदिकमस्ति
पितृप्रातिपदिकम् अपि च प्रथमाभक्त्यन्तरूपं पिता परन्तु सम्बोधनरूपं पितः
भगिनी
पितः वदतु भगिनि
पदं महाराजा इति पदं सम्बोधनं पदं सम्बोधनं रूपं किम्
तत्र दत्तमस् अत्रैव दत्तमस्ति भगिनि महाराजः किं भवति महाराज
महाराज आकारान्त
आकारान्तपदम् अभवत् रामः यथा रामशब्दवत्
आकारान्त महाराज आकारान्तपदं वा
अकारान्तपदम्
महाराजः ह्रस्व
ह्रस्व अकारान्तपदम्
महाराज महाराज महाराजा नास्ति
अत्र पश्यतु भगिनि अभ्यासपुस्तकं पश्यतु प्रथमतया गीताञ्जलि भगिनि अत्र किं दत्तमस्ति प्रथमाविभक्त्यन्तरूपम् अस्ति अपि च सम्बोधनरूपं दत्तमस्ति प्रथमाविभक्त्यन्तरूपं महाराजः
महाराजः
सम्बोधनरूपं महाराज वदतु महोदय
इकार उकारयोः गुणः भवति सर्वे सम्बोधने इकारान्त उकारान्त गुणः भवति
गुणः भवति हरिः हरे गुरुः गुरो पिता शब्दस्य पितः शोभा भगिनी अग्रिमं करोतु सीता
सीता सीता प्रातिपदिकं सीता एव सीते आकारान्त आकारान्तस्थाने दीर्घ आकारः लुप्यते अपि एकार आगच्छति
एकारः आगच्छति अत्र सुधा इति वंशी सुधा भगिनी अस्ति सम्बोधनरूपं किं भवति
सुधे
भूमा किं भवति
भूमे
शोभा
शोभे
भवति शोभे शोभे
गीते उषे
गीते उषे भगिनी अत्र पश्यतु गीता गीताञ्जलिः सम्यक् सम्यक् एव गीता गीते भवति
गीता गीते भवति गीताञ्जलि अस्ति चेत् लक्ष्मीः तस्य रूपम् आगच्छति वा
तथा अहं चिन्तयामि गीताञ्जलिः
परन्तु लक्ष्मी दीर्घ इकारान्त अस्ति भगिनी गीताञ्जलिः ह्रस्व अस्ति तत्र अहं न जानामि
भगिनी किं भवति वदतु भगिनि
लैक् हे नदी हे गीताञ्जलि
विसर्गः अस्ति
अत्र अग्रिमं पठतु भगिनि रमा किं भवति
रमा रमे
मान्या
मान्या मान्ये
इत्युक्ते अत्र पदं स्त्रीलिङ्गपदम् अपि च दीर्घ आकारान्तम् अस्ति चेत् सीते रमे मान्ये अपि च
गौरी अस्ति चेत् गौरी शोभे
गौरी गौरी
दीर्घ
अत्र पश्यन्तु अत्र पश्यन्तु सर्वे यदि वयम् ई पत्रं लिखामश्चेत् सम्बोधनं कुर्मः तदा कथं वक्तव्यम् अत्र कथं लेखनीयं भगिनी सर्वे मा विस्मरन्तु अत्र सर्वे यदि भवन्तः ई पत्रं लेखितुमिच्छन्ति चेत् तदा भगिनी न तु भगिनी अत्र सम्बोधनरूपं भगिनी अनन्तरं लक्ष्मीः अस्ति वदतु अत्र किम् अभवत्
भगिनी तत् गौरीशब्दवत् अस्ति चेत् ह्रस्व एव भवति भगिनी अन्य रूल् अस्ति वा भगिनी गौरी गौरी भवति अत्र एव अस्ति भगिनी भगिनी
अत्रैव दत्तमस्ति लक्ष्मीः अपि अत्र एव दत्तमस्ति दृष्ट्वा वदतु
लक्ष्मीः लक्ष्मी विसर्गः ल्युपते अपि ईकार दीर्घ ईकारान्तः अपि युपते लक्ष्मी
लक्ष्मी भवति इत्युक्ते हस्वरूपम् आगच्छति अत्र अत्र पश्यन्तु अम्बा इति पदमस्ति अम्बा इति दीर्घ आकारान्तपदं परन्तु अत्र सम्बोधनरूपं कथमस्ति
अम्बा परन्तु सम्बोधनरूपे तत् पदं क्लिष्टं भवति
अत्र पश्यन्तु परं पदमस्ति अम्बा परन्तु सीता सीता शब्दवत् परन्तु अत्र सम्बोधनरूपं कथमस्ति
अत्र अम्बा परन्तु सम्बोधने समये अम्बा सुलभम् अस्ति
इत्युक्ते अत्र संस्कृतभाषायां बहवः नियमाः सन्ति अपि च तत्र एक्सेप्शन् एक्सेप्शन्स् इति वदामः अत्र किं वदामः संस्कृतभाषायां एक्सेप्शन्स् अपि सन्ति अत्र अम्बा शब्दः एक्सेप्शन् अत्र यद्यपि दीर्घ आकारान्तपदमस्ति परन्तु तस्य सम्बोधनरूपं केवलम् अम्ब न तु अम्बे अन्तिमं पदं माता
अन्तिमं माता अस्ति दीर्घ आकारान्त तस्य दीर्घ आकारान्त युपते ह्रस्व आकारान्तः अपि विसर्गः भवति
अत्र अहम् एकं वदामि मित्रम् इति पदमस्ति मित्रम् इति पदस्य सम्बोधनं किं भवति कोऽपि जानाति वा
मित्रं नपुंसकपदम् अस्ति
मित्रे अत्र मित्र हे मित्र मित्र हे मित्र उत्तमम् 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 इत्युक्ते अत्र अत्र न दत्तमस्ति परन्तु केवलं पृच्छामि अत्र मित्रं शब्दस्य सम्बोधनरूपं मित्र हे मित्र हे मित्र इति दत्तमस्ति अत्र गते सप्ताहे शोभा भगिनी उक्तवती अत्र दत्तवती एकं गीतं प्रेषितवती तत्र सर्वे तत् करपत्रं पश्यन्तु अत्र सुमनसवन्दितसुन्दरी माधवी भगिनी भवती श्रावितुं शक्नोति वा अत्र
अहं न जानामि भगिनि तत्
नो चेत् अत्र करपत्रं प्रेषितवती करपत्रं दृष्ट्वा पठतु
सुमनसवन्दितसुन्दरी माधवी चन्द्रसहोदरी हेममये मुनिगणवन्दितमोक्षप्रदायिनी प्रदायिनी मञ्जुलभाषिणी वेदनुते पङ्कजवासिनी देवसुपूजित सद्गुणवर्षिणि शान्तियुते जय जय हे मधुसूदनकामिनी आदिलक्ष्मी परिपालय माम्
अत्र भगिनी अत्र एकः एव दोषः अस्ति परि इति नास्ति केवलं पालय माम् इति अस्ति अत्र रघुपत्याचार्यमहोदय अस्मिन् श्लोके बहूनि सम्बोधनरूपाणि सन्ति वदतु महोदय करपत्रं दृष्ट्वा
भगिनी क्षम्यताम् अहं भोजनं कुर्वन् अस्मि
अस्तु अस्तु नो चेत् अत्र गीताञ्जलि भगिनी भवत्याः पार्श्वे करपत्रमस्ति वा
आं भगिनि
अस्मिन् श्लोके बहूनि सम्बोधनरूपाणि सन्ति दृष्ट्वा वक्तुं शक्नोति वा
माधवी सहोदरी प्रदायिनी भाषिणी मञ्जुलभाषिणी पङ्कजवासिनी गुणवर्षिणी अपि च मधुसूदनकामिनी आदिलक्ष्मी
आदिलक्ष्मी उत्तमम् उत्तमम् इत्युक्ते अत्र माधवी सुमनसवन्दितसुन्दरी माधवी अत्र माधवी दीर्घैकारान्तपदं परन्तु अत्र माधवी इति भवति चन्द्रसहोदरी हेममये हेममये तदपि सम्बोधनारूपं वेदनुते मोक्षप्रदायिनी मञ्जुलभाषिणि पङ्कजवासिनि सद्गुणवर्षिणि अत्र पश्यन्तु अत्र साधारणवाक्यं किं दत्तमस्ति आदिलक्ष्मी पालय माम् आदिलक्ष्मी मां पालय वंशसुधावर्णे मां पालय अत्र पालय इति रूपं किम्
पालय परिपालय
मध्यमपुरुष एकवचनम्
आं भगिनि आं मध्यमपुरुष एकवचनं इति एकक्षणं भगिनि अहं न स्मरामि
अत्र एव अत्र वदतु
पुरुष एकवचनं किम्
अत्र अस्मिन् श्लोके सर्वाणि पदानि मधुसूदनकामिनी इति अपि सम्बोधनरूपमेव परन्तु अत्र वाक्यमस्ति आदिलक्ष्मी मां पालय लोट्लकार भगिनी आदिलक्ष्मी मां पालय लोट्लकारः मध्यमपुरुषे एकवचनं तथा एव अत्र हे इति दत्तमस्ति हे इति अव्ययरूपं हे माधवी हे चन्द्रसहोदरी हे मोक्षप्रदायिनी हे मञ्जुलभाषिणी तथा अनन्तरं जय जय अत्र जय जय इति पदमपि लोट्लकार मध्यमपुरुष एकवचनरूपं जय जय इति पदमपि तथा अस्ति अत्र आदिलक्ष्मी मां पालय इति रूपम् अस्ति अस्मिन् श्लोके बहूनि सम्बोधनरूपाणि सन्ति अपि च एकवारं शोभा भगिनी पृष्टवती किमर्थं तत्र बहूनि विशेषणानि पदानि सन्ति चेदपि तत्र च वयं जानीमः च इति न योजितमस्ति किमर्थम् अहं दृष्टवती तत्र किमर्थम् इत्युक्ते अस्मिन् श्लोके एकम् उद्दिश्य एव वयं वदामः एकमेव पदमस्ति अपि च अन्यानि पदानि केवलं विशेषणानि केवलं विशेषणानि इत्युक्ते अत्र पुरुषद्वयं वा अथवा महिलाद्वयं वा नास्ति अत्र इत्युक्ते केवलम् एकमेव विशेष्यम्
बहूनि विशेषाणि पदानि सन्ति चेत् विशेषाणि पदानि तास्य बहुवचनम् अत्र न अन्वयति वा
अत्र भगिनि केवलम् आदिलक्ष्मी इति एव विशेष्यं अन्यानि सर्वाणि पदानि विशेषणानि अत्र वयं केवलम् आदिलक्ष्मी उद्दिश्य एव वदामः तत्र अन्यः कोऽपि नास्ति यदि रामः लक्ष्मणः अपि च भरतः शत्रुघ्नः तथा वदामश्चेत् तदा एव केवलं च इति योजयामः अत्र केवलम् आदिलक्ष्मीम् उद्दिश्य एव वयं वर्णनं कुर्मः अत्र व्यक्तिः एकः एव तदर्थम् अत्र इच्छा इति योजनस्य आवश्यकता नास्ति
भगिनी
देट् मीन्स् यु आर् टाकिङ्ग् अबौट् ओन्लि वन् पर्सन् अत्र एकः एव वदतु
सो नो नीड् टु से यु आर् दिस् आल्सो दिस् आल्सो दिस् आल्सो दिस् लैक् देट्
तदेव अत्र च योजनस्य आवश्यकता नास्ति अधुना अत्र समापयामः अस्माकं पार्श्वे अन्या कथा अपि अस्ति अत्र अपरिवर्तनीयः विधिनियमः अग्रिमे सप्ताहे पठिष्यामः उत्तमा कथा सर्वे एकवारं पश्यन्तु कथां पठन्तु अग्रिमे सप्ताहे पुनः एकवारं मिलामः अत्र स्थगयामः धन्यवादः
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 नमस्कारः
धन्यवादः